श्रीमद्भागवत महापुराणम् एकादशस्कन्धः अथ त्रयोदशोऽध्यायः श्रीभगवानुवाच सत्वं रजस्तम इति गुणा बुद्धिर्न चात्मनः सत्वेनान्यतमौ हन्यात् सत्वं सत्वेन चैव हि सत्वाद्धर्मो भवेद्वृद्धात् पुंसो मद्भक्तिलक्षणः सात्विकोपासया सत्वन् ततो धर्मः प्रवर्तते धर्मो रजस्तमो हन्यात् सत्ववृद्धिरनुत्तमः आशु नश्यति तन्मूलो यधर्म उभयेहते आगमो प्रजादेशक कालक कर्म च जन्म च ध्यानं मन्त्रोऽथ संस्कारो दशैते गुणहेतवः तत्तत् सात्विकमेवैषां यद्यद्वृद्धाः प्रचक्षते निन्दन्ति तामसन्तत्तद् राजसन्तदुपेक्षितम् सात्विकान्येव सेवेत पुमान् सत्वविवृद्धये ततो धर्मस्ततो ज्ञानम् यावत् स्मृतिरपोहनम् वेणुसङ्घर्षजो वह्निर्दग्ध्वा शाम्यति तद्वनम् एवं गुणव्यत्ययजो देह शाम्यति तत्क्रियः उद्धव उवाच विदन्तिमर्त्याः प्रायेण विषयान् पदमापदाम् तथापि भुञ्जते कृष्ण तत्कथं श्वखराजवत् श्रीभगवानुवाच अहमित्यन्यथा बुद्धि प्रमत्तस्य यथा हृदि उत्सर्पतिरजो घोरन् ततो वैकारिकं मनः रजो युक्तस्य मनसः सङ्कल्पः सविकल्पकः ततः कामो गुणध्यानात् दुःसहस्याधिदुर्मतेः करोति कामवशगः कर्माण्यविजितेन्द्रियः दुःखोदर्काणि सम्पश्यन् रजोवेगविमोहितः रजस्तमोभ्यां यदपि विद्वान् विक्षिप्तधीः पुनः अतन्द्रितो मनो युयीजन् दोषदृष्टिर्न सज्जते अप्रमत्तो नु युयीजित मनो मय्यर्पयैच्छनैः अनिर्विण्णो यथा कालैजितश्वासो जितासनः एतावान् योगादिष्टो मच्छिष्यैः सनकादिभिः सर्वतो मनाकृष्य मय्यद्धावेश्यते यथा उद्धव उवाच यदा त्वं सनकादिभ्यो येन रूपेण केशव योगमादिष्टवानेतत् रूपमिच्छामि वेदितुम् श्रीभगवानुवाच पुत्राहिरण्यगर्भस्य मानसास्तनकादयः पप्रच्छुः पितरं सूक्ष्मां योगस्यै कान्तिकीं गतिम् सनकादय ऊचुः गुणेष्वाविशते चेतो गुणाश्चेतसि च प्रभो कथमन्योन्यसन्त्यागो मुमुक्षोरतितीर्षोः श्रीभगवानुवाच एवं पृष्टो महादेवस्स्वयंभूर्भूतभावनः ध्यायमानः प्रश्नबीजन् नाभ्यपद्यत कर्मधीः स मामचिन्तयद्देवः प्रश्नपारतितीर्षया तस्याहं हंसरूपेण सकाशमगमन् तदा दृष्ट्वा मान्तमुपव्रज्य कृत्वा पादाभिवन्दनम् ब्रह्माणमग्रतः कृत्वा पप्रच्छुक् को भवानिति इत्यहं मुनिभिः पृष्टस्तत्त्वजिज्ञासुभिस्तदा यदवोच महन्तेभ्यस्तदुद्धवनिबोधमे वस्तुनो यद्यनानात्वमात्मनः प्रश्न ईदृशः कथं घटेत वो विप्रा वक्तुर्वामेकाश्रयः पैचात्मकेषु भूतेषु समानेषु च वस्तुतः को भवानिति वः प्रश्नो वाचारम्भो ह्यनर्थकः मनसावचसा दृष्ट्या दृयते न्यैरपीन्द्रियैः अहमेव न मत्तोऽन्य दिति बुद्ध्यद्वमयि जसा गुणेष्वाविशते चेतो गुणाश्चेतसि च प्रजाः जीवस्य देह उभयं गुणाश्चेतो मदात्मनः गुणेषु चाविशच्चित्तमभीक्ष्णं गुणसेवया गुणाश्च चित्तप्रभवा मद्रूप उभयं त्यजे जाग्रत्स्वप्नसुषुप्तै च गुणतो बुद्धिवृत्तयः तासां विलक्षणो जीवस् साक्षित्वेन विनिश्चितः यर्हि संस्कृतिबन्धो मात्मनो गुणवृत्तिदः मयितुर्यस्थितो जह्यात् त्यागस्तद्गुणचेतसाम् अहङ्कारकृतं बन्धमात्मनो विपर्ययम् विद्वान्निर्वेद्य संसार चिन्तान्तुर्ये स्थितस्त्यजेत् यावन्नानार्थधीः पुंसो न निवर्तेत युक्तिभिः जागर्त्यपि स्वपन्नज्ञः स्वप्ने जागरणं यथा असत्त्वादात्मनोन्येषां भावानां तत्कृताभिधा गतयो हेतवश्चास्य मृषा स्वप्नदृशो यथा यो जागरे बहिरनुक्षणधर्मिणोऽर्थान् भुङ्क्ते समस्तकर्णैर्हृदि तत् सदृक्षान् स्वप्ने सुषुप्त उपसंहरते स एकस्मृत्यन्वया त्रिगुणवृत्तिदृगिन्द्रियेशः एवं विमृश्य गुणतो मनसस्त्र्यवस्था मन्मायया मयि कृता इति निश्चितार्थाः सैच्छेद्यहार्दमनुमानसदुक्तितीक्ष्ण ज्ञानासिना भजतमाखिलसंशयादिम् ईक्षेतविभ्रममिदं मनसो विलासन् दृष्टं विनष्टमतिलोलमलातचक्रम् विज्ञानमेकमुरुधेव विभाति माया स्वप्नस्त्रिधा गुणविसर्गकृतो विकल्पः दृष्टिं ततः प्रतिनिवर्त्य निवृत्ततृष्णस्तूष्णीं भवेन्निजसुखानुभवो निरीहः सन्दृश्यते क्वच यदीदमवस्तु बुद्ध्या त्यक्तं भ्रमाय न भवेत् स्मृतिरानिपातात् देहै च नश्वरमवस्थितमुत्थितं वा सिद्धो न पश्यति यतोऽध्यगमत्स्वरूपम् दैवादपि तमुतदैव वशादुपेतम् वासो यथा परिकृतं मदिरामदान्धः देहोऽपि दैववशगः खलु कर्म यावत् स्वारम्भकम् प्रति समीक्षत एव सासुः तं सप्रपैचमधिरूढसमाधियोगस् स्वाप्नं पुनर्न भजते प्रतिबुद्धवस्तुः मयैतदुक्तं वो विप्रागुह्यं यत्साङ्ख्ययोगयोः जानीतमागतं यज्ञम् युष्मद्धर्मविवक्षया अहं योगस्य साङ्खस्य सत्यस्यर्तस्य तेजसः परायणं द्विजश्रेष्ठाश् श्रियः कीर्तेर्दमस्य च मां भजन्ति गुणाः सर्वे निर्गुणं निरपेक्षकम् सुहृदं प्रियमात्मानं साम्यासङ्गादयो गुणाः इति मे छिन्न सन्देहा मुनयस्तनकादयः सभाजयित्वा परया भक्त्या गृणत संस्तवैः तैरहं पूजितः सम्यक् संस्तुतः परमर्षिभिः प्रतीयायस्त्वकन्धाम पश्यतः परमेष्ठिनः इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे त्रयोदशोऽध्यायः ॐ श्री कृष्णार्पणमस्तु।